ॐ श्री विष्णोरष्टाविंशतिनामस्तोत्रम् श्री गणेशाय नमः। अर्जुन उवाच, किं नु नाम सहस्राणि जपते च पुनः पुनः, यानि नामानि दिव्यानि तानि चाचक्ष्व केशव। श्री भगवानुवाच, मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम्, गोविंदं पुंडरीकाक्षं माधवं मधुसूदनम्। मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम्, गोविंदं पुंडरीकाक्षं माधवं मधुसूदनम्। पद्मनाभं सहस्राक्षं वनमालिं हलायुधं गोवर्धनं हृषीकेशं वैकुंठं पुरुषोत्तमम्। पद्मनाभं सहस्राक्षं वनमालिं हलायुधं गोवर्धनं हृषीकेशं वैकुंठं पुरुषोत्तमं। विश्वरूपं वासुदेवं रामं नारायणं हरिं। विश्वरूपं वासुदेवं रामं नारायणं हरिं। दामोदरं श्रीधरं च वेदांगं गरुड़ध्वजं, दामोदरं श्रीधरं च वेदांगं गरुड़ध्वजं। अनंत कृष्ण गोपालं जपतो नास्ति पातकं, गवां कोटि प्रदानस्य अश्वमेध शतस्य च। अनंतं कृष्ण गोपालं जपतो नास्ति पातकं, गवां कोटि प्रदानस्य अश्वमेध शतस्य च। कन्यादान सहस्राणां फलं प्राप्नोति मानवः, अमायां वा पौर्णमास्यामेकादश्यां तथैव च। कन्यादान सहस्राणां फलं प्राप्नोति मानवः, अमायां वा पौर्णमास्यामेकादश्यां तथैव च। संध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च, मध्याह्ने च जपेन्नित्यं सर्वपापैः प्रमुच्यते। संध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च, मध्याह्ने च जपेन्नित्यं सर्वपापैः प्रमुच्यते। सर्वपापैः प्रमुच्यते। सर्वपापैः प्रमुच्यते। इति श्री विष्णोरष्टाविंशति नाम स्तोत्रं संपूर्णम्।